एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये दलस्य आन्तरिक विवादस्य समाधानान्वेषणस्य विषये ह्यो विहितम् विमर्शनम् अनुकूलम् वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने नेकपा दलस्य महासचिवेन विष्णु पौडेलेन स्थायी समितेः सदस्याभ्याम् शंकर पोखरेलेन जनार्दन शर्मणा च सहितस्य अध्यक्षद्वयस्य मध्ये विहितम् विमर्शनम् समस्याया समाधानान्वेषणत्वेन अनुकूलम् अवर्तत इति ज्ञातमस्ति। गताश्रावणमासस्य दशमे दिवसे प्रारब्धाय स्थायी समिते उपवेशाय निर्धारितायाः कार्यसूच्याः बहिर्गत्वा दलस्य वरिष्ठ नेतृभिः एव प्रधानमन्त्रिणा ओलिना त्यागपत्रस्य अभियाचनमनु नेकपादले आन्तरिक विवादः वर्धमानो वर्तते। विवादस्यैव कारणेन स्थायी समितेः उपवेश भूयो भूयो स्थगितोऽस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन कोरोना संक्रान्तानां जनानाम् उपचारे संलग्नानां स्वास्थ्यकर्मिणां पीसीआर विधिना परीक्षणानन्तरमेव कार्ये प्रवर्तनाय सर्वे चिकित्सालयाः अनुरुद्धाः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः अगदत् महामार्या अवस्थायां स्वास्थ्यकर्मिणाम् अभावं रोद्धुं समयैव सावधानतया सर्वेषां स्वास्थ्यकर्मिणां नियमेन परीक्षणं विधातव्यम्। प्रवक्ता प्राध्यापक डा गौतमः कोरोना संक्रान्तानां जनानाम् उपचाराय निर्धारितेषु चिकित्सालयेषु शतचतुष्टयम् सघनोपचारोपकरणानि अथ च नवशतं द्वाचत्वारिंशत् च सघनोपचार कक्षाः तत्परावस्थायां स्थापिताः सन्ति इति अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण कोरोना संक्रमणात् गतदिने काठमाण्डु उपत्यकायां शतेन द्वासप्तत्या च जनैः सह अतिरिक्तेषु पञ्चशते द्वाविंशत्यां च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। गतदिने काष्ठमण्डपे शतम् एकादश च भक्तपुरे पञ्च ललितपुरे एकादश च संक्रान्ता जनाः वर्धिताः सन्ति। गतदिने अतिरिक्ताः शतम् नव च जनाः कोरोनामुक्ताः सन्तो गृहं प्रत्यावृताः वर्तन्ते। एवमेव गतदिने अतिरिक्तानां चतुर्णां जनानां मृत्युः पश्चात् कोरोना संक्रमणेन मृतानां जनानां नेपाली अद्यावधि संख्या पञ्चनवतिः प्राप्तास्ति। महोत्तरी अछाम धनुषा मोरङ जनपदेषु प्रति जनपदम् एकैकं कृत्वा चत्वारो जनाः संक्रमणेन मृताः सन्ति इति प्रवक्ता गौतमः अज्ञापयत्। काभ्रे पलाञ्चोक जनपदस्य धुलीखेल चिकित्सालय क्षेत्रं पिदाप्य धुलीखेलापञ्च पिधापितो वर्तते। एकेन रोगिणः दशसु जनेषु कोरोना संक्रमणस्य पुष्टि अनन्तरं गतदिने जनपद प्रशासन कार्यालये उपविष्टेन उपवेशेन चिकित्सालय क्षेत्रं पिधापयितुं निर्णीतमस्ति। बर्दिया जनपद प्रशासन कार्यालयमा दिवसत्रयाय निषेधाज्ञा वर्धापिता वर्तते। कोरोना संक्रमणस्य समुदायस्तरे प्रसारस्य संकट वर्धितोस्थिति वितर्क्य एतस्य नियन्त्रणाय गतरात्रि यावत् क्रियान्विताय निषेधाज्ञायाः समय दिवसत्रयाय वर्धापित इति बर्दिया जनपदस्य प्रमुख जनपदाधिकारी लीलाधर अधिकारी अज्ञापयत्। सुर्खेना जनपदस्य वीरेन्द्र नगरे आगामिना भाद्रमासस्य प्रथम दिवसात् पञ्चम दिवसं यावत् निषेधाज्ञा क्रियान्विष्यते। कोरोना संक्रमणस्य वर्धनमनु जनपद कोविड 19 व्यवस्थापन केन्द्रस्य परामर्शे जनपद सुरक्षा समितेः गतदिने उपविष्टेन उपवेशेन आगामिनो भाद्रस्य प्रथम दिवसस्य प्रातः षड्वादनात् पञ्चम दिवसस्य रात्रौ द्वादशवादन पर्यन्तं वीरेन्द्रनगर क्षेत्र निषेधाज्ञं क्रियान्वेतुं निर्णीतमिति सहायक प्रमुख जनपदाधिकारी भीमकान्त पौडेलः अवोचत्। राष्ट्रे कोरोना संक्रान्तानां जनानां संख्याया वर्धनस्य अनन्तरं धनकुटा नगरपालिकायाः प्रथम तृतीय चतुर्थ पञ्चम षष्ठ सप्तम वडा क्षेत्राणि निषिद्ध क्षेत्राणि उद्घोषितानि सन्ति। धनकुटा जनपद प्रशासन कार्यालयेन गतदिनात् रात्रौ द्वादशवादनतः क्रियान्वयनत्वेन एतानि क्षेत्राणि निषिद्ध क्षेत्राणि उद्घोषितानि वर्तन्ते इति ज्ञापितमस्ति। कैलाली जनपद प्रहरी कार्यालये कार्यरते प्रहरीत्रये कोरोना संक्रमण पुष्टीभूतं वर्तते। गतदिने सेती प्रादेशिक चिकित्सालयस्य कोविड 19 प्रयोगशालायां विहितेन परीक्षणेन 20 प्रहरीणां मध्ये त्रिषु प्रहरीषु कोरोना संक्रमण पुष्टीभूतमिति कैलाली जनपद प्रहरी कार्यालयेन ज्ञापितमस्ति। नेपाल भारत सीमा क्षेत्रे विद्यमाने बांके कारागारे वर्तमानेषु कारावासिषु कोरोना संक्रमणस्य पुष्टेः अनन्तरं कारावासिनः अन्यत्र जनपदेषु स्थानान्तरिताः सन्ति। बांके कारागारस्य कारावासिषु कोरोना संक्रमणस्य दर्शनानन्तरं स्थानीय प्रशासनस्य समन्वय कारागार प्रशासनेन महिला कारावासिन दैलेख जनपदे पुरूष कारावासिनश्च वर्दिया जनपदे स्थानान्तरिता सन्ति। नेपाल राष्ट्र कोषेण स्वस्य भव्ये कोषागारैः वित्तीय संस्थाभिश्च कोविड उनविंशत्या संक्रान्तानां तेषां सम्पर्के आगतानां च जनानां परीक्षण विधातुं निर्दिष्टं वर्तते। केन्द्रीय कोषागारेण गतदिने विशेष परिपत्रं सम्प्रेष्य कोरोना संक्रमण प्रतिदिनं वर्धमानमस्तीति कारणेन कोषागारेषु वित्तीय संस्थासु च कार्यरतानां कर्मचारिणां सेवाग्रहिणां च स्वास्थ्यम् उच्च प्राथमिकतायां संस्थाप्य कोषागारीय सेवां प्रदातुं निर्दिष्टं वर्तते। कोषागारेण संक्रमितान् कर्मचारिणः आवश्यकतायाः अनुसारेण गृहे अतिथिसदने वा सुरक्षिततया स्थापयितुं तस्य सम्पूर्ण व्ययं कोषागारेण वित्तीय संस्थाभिः एव च बोढुम् अपि निर्देशने उल्लिखितं वर्तते। कोविड उनविंशते संक्रमणस्य क्रमेण वर्धमान त्रिभुवन विश्वविद्यालयेन तत्कालीन परीक्षा न सञ्चालयिष्यते। परिपीडन निवारणस्य पश्चात् परीक्षा नियन्त्रण कार्यालयेन आगामिनो भाद्रस्य षोडश दिवस सत्र प्रणाल्या आश्विनस्य प्रथम सप्ताहात् वार्षिक प्रणाल्याश्च परीक्षाया पूर्वकार्यं विहितं सदपि कोरोना संक्रमणस्य समुदाय स्तरे एव पुनः प्रसरणमान् तत्कालं परीक्षा न सञ्चालयितुं निर्णीतमिति परीक्षा नियन्त्रण कार्यालयस्य परीक्षा नियन्त्रकः पुष्पराज जोशी अज्ञापयत्। कञ्चनपुरस्य सुरक्षावासे विद्युत् प्रवाह स्पर्शेन गत मंगलवासरे मृतायाः कृष्णपुर नगरपालिकायाः षष्ठवडा क्षेत्रस्य त्रयोविंशति वर्षीयायाः राधादेवी ओड इत्यस्याः परिवाराय नगरपालिकया दशलक्षाणां रूप्यकाणां सहयोगः प्रदास्यते। मृतक परिवारस्य सहमति अनुसारेण नगरपालिकया ओड इत्यस्याः द्वादशमासानां पुत्र्याः अनु इत्यस्याः कोषागारीयाभिलेखाय सहयोगरूप्यकाणि सञ्चीयन्ते। नगरपालिकया सहयोग प्रदानेन सैव मृतकस्य पत्यै योग्यतायाः आधारेण कार्यालये वृत्तिपादन प्रदानाय सहमति धृतास्थिति च नगरपालिका प्रमुखस्य स्वकीय सचिवा गणेश सिंह ऐरी अज्ञापयत्। इति समाचारः।